सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे अहम् एकं श्लोकं वदामि. रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे श्रीराम मामुद्धर. इत्युक्ते अत्र अस्मिन् श्लोके बहुवारं राम राम इति आगतं. किमर्थं रामस्य स्मरणं करणीयम् इत्युक्ते रामः विग्रहवान् धर्मः. सः सर्वदा धर्मम् आचरितवान्, सः धर्मवान्, अतः रामस्य नाम स्मर्तव्यम्. अपि च अस्मिन् श्लोके कानिचन पदानि सन्ति. कीदृशानि पदानि? रामः, रामं, रामेण, रामाय, रामात्, रामस्य, रामे, भो राम, एतानि पदानि सन्ति. इत्युक्ते अत्र अस्मिन् श्लोके बहु उत्तमरीत्या रामशब्दस्य एकवचनान्तरूपाणि, सप्तसु विभक्तिषु एकवचनान्तरूपाणि दत्तानि. अत्र साधारणतया श्लोकेषु पदानि इतस्ततः भवन्ति. इत्युक्ते तत्र क्रमपद्धत्या न पदानि न स्थापितानि सन्ति. किमर्थं तथा इत्युक्ते श्लोकेषु छन्दः अस्ति. छन्दः इत्युक्ते मीटर् अस्ति. इत्युक्ते सर्वदा श्लोकाः छन्दोबद्धाः. तदर्थं श्लोकेषु पदानि इतस्ततः सन्ति. किन्तु एकवारं वयं तानि सर्वाणि पदानि स्वीकृत्य क्रमपद्धत्या लिखामश्चेत् श्लोकस्य अर्थं सम्यक् रीत्या अवगन्तुं शक्नुमः. अत्र सा प्रक्रिया इत्युक्ते श्लोकस्य पदानि क्रमरीत्या क्रमपद्धत्या लिखामः, स एव अन्वयः इति वदामः. तत्र श्लोकं पश्यामश्चेत् तत्र अष्टवाक्यानि रचयितुं शक्नुमः. श्लोके यानि यानि पदानि सन्ति तानि सर्वाणि स्वीकृत्य अष्टवाक्यानि लेखितुं शक्नुमः. वाक्यानि कानि अथवा अन्वयः कः इति वदामश्चेत् रामः राजमणिः सदा विजयते. एकं वाक्यं रामः, तत्र रामशब्दस्य प्रथमान्तं रूपं दत्तमस्ति. रामं रमेशं भजे, तत्र रामम् इति द्वितीयविभक्त्यन्तरूपम् अस्ति. अनन्तरं रामेण निशाचरचमूः अभिहता, रामेण तृतीयान्तं रूपं. तस्मै रामाय नमः, तत्र रामाय चतुर्थी विभक्त्यन्तरूपम्. रामात् परतरं परायणं नास्ति, तत्र रामात् पञ्चम्यन्तं रूपम्. अहं रामस्य दासः अस्मि, रामस्य षष्ट्यन्तं रूपम्. रामे मम चित्तलयः भवतु, तत्र सप्तम्यन्तं रूपम्. भो राम माम् उद्धर, भो राम सम्बोधनान्तं रूपम्. इत्युक्ते अत्र अस्मिन् श्लोके रामशब्दस्य, रामशब्दः कीदृशः? अकारान्त पुंलिङ्गशब्दः. रामशब्दस्य रूपाणि उत्तमरीत्या स्थापितानि सन्ति एकत्र. किन्तु केवलम् एकवचनान्तरूपाणि एव दत्तानि. यदि वयम् ईदृशरीत्या श्लोकं जानीमश्चेत् सुलभतया रूपाणां स्मरणं कर्तुं शक्नुमः. अस्माकं कार्यं सुकरं भवति. पुरातनकाले छात्राः ईदृशरीत्या श्लोकान् कण्ठस्थीकुर्वन्ति स्म. अपि च यदि वयम् इमं श्लोकं जानीमश्चेत् रामशब्दं सुलभतया वक्तुं शक्नुमः. अपि च रामः तु विग्रहवान् धर्मः, सः धर्मवान्, अतः तस्य नामस्मरणमपि भवति. अतः इमं श्लोकं पठितवती अद्य. उत्तमम्। अनन्तरम् अत्र गते सप्ताहे वयं यतः अतः इति अव्ययपदं योजयित्वा वाक्यरचना कथं करणीया तस्मिन् विषये वयं किञ्चित् अधीतवन्तः। भवन्तः सर्वे गृहपाठरूपेण यतः योजयित्वा वाक्यद्वयम्, अतः योजयित्वा वाक्यद्वयं रचितवन्तः इति मम चिन्तनम्। अत्र यस्मिन् कस्मिन्नपि वाक्ये कारणवाक्यमस्ति अपि च कार्यवाक्यमस्ति चेत् यतः इति पदं कारणवाक्येन सह योजयित्वा लिखामः। अत्र दीपः ज्वलति किमर्थं? विद्युत् अस्ति इति कारणतः। तत्र अतः किं वदामः? दीपः ज्वलति यतः अस्मिन् प्रकोष्ठे विद्युत् अस्ति। अहं अद्य संस्कृतकक्ष्यां समये तस्य आरब्धं न कर्तुं शक्तवती। किमर्थं? मम दूरवाणी सम्यक् नास्ति। अद्य अहम् अस्माकं संस्कृतकक्षा समये आरम्भं कर्तुं न शक्तवती यतः मम दूरवाणी सम्यक् नास्ति इति वक्तुं शक्नुमः। अहं चिन्तयामि भवन्तः सर्वे उत्तमरीत्या वाक्यानि लिखितवन्तः इति भाति। तदर्थं वयं किं कुर्मः? इतोपि नूतनान् विषयान् ज्ञास्यामः अधुना। गृहपाठं त्यक्त्वा नूतनान् विषयान् ज्ञास्यामः। इतोपि अन्यः विषयः अपि अस्ति। तत् किमित्युक्ते अस्माकम् अभ्यासपुस्तकं समाप्यमानमस्ति। इट्स् गोयिङ्ग् टु बि कम्प्लीटेड् वेरि सून्। इदानीं वयं कस्मिन् पुटे स्मः इत्युक्ते तत्र अभ्यासपुस्तकं पश्यामश्चेत् तत्र सर्वे एकवारं पश्यन्तु अभ्यासपुस्तकं द्विसप्ततितमं पुटं पश्यन्तु। इत्युक्ते इदानीं पर्यन्तं वयं द्विसप्ततितमं पुटपर्यन्तं पठितवन्तः। तस्मात् तावत्पर्यन्तं वयं समापितवन्तः। तत्र तस्मिन् एव पुटे सर्वे एकवारं अभ्यासपुस्तकं पश्यन्तु। अभ्यासपुस्तके द्विसप्ततितमं पुटं पश्यन्तु। तत्र 34.1 भागे शरीरस्य अवयवानां नामानि अत्र सन्ति, तानि उचिते स्थाने लिखतु इति दत्तमस्ति। तत्र सर्वे अभ्यासपुस्तके द्विसप्ततितमं पुटं पश्यन्ति चेत् तत्र किमस्ति इति एकवारं पश्येम। वयं सर्वे जानीमः एव अत्र शरीरस्य भागाः सन्ति। अस्मिन् पुटे शरीरस्य भागाः दत्ताः। अस्माकं शरीरे भिन्नभिन्नभागाः सन्ति। चित्रं अत्र चित्रमस्ति। चित्रं परिशील्य अस्माकं शरीरस्य भागानां नामानि ज्ञातव्यानि, भागाः ज्ञातव्याः। भागः इति पदं पुंलिङ्गपदम्, अतः भागाः ज्ञातव्याः। अतः अधुना वयं 34.1 भागे किमस्ति इति एकवारं पश्येम। कादम्बरी भगिनी, तत्र एकवारं चित्रं दृष्ट्वा वयं किं कर्तुं शक्नुमः? एकवारं पश्यतु। अत्र कोष्टके कानिचन पदानि दत्तानि, पदानि पठतु एकवारम्।
केशाः, शिरः, ललाटः, कर्णः, नासिका, मुखं, कपोलः, कण्ठः, वक्षः, वक्षस्थलं, स्वकन्धः, भुजः, अङ्गुली, नखः, पादः, उदरं, कटिः।
कटिः, उत्तमम्। अत्र कानिचन पदानि सन्ति। अधुना वयं किं कुर्मः? अत्र प्रथमं पदमस्ति केशाः। भवती एव वदतु लिङ्गं किम्? केशाः पदस्य लिङ्गं किम्?
पुल्लिङ्गं
पुंलिङ्गम्। उत्तमम्। अत्र पश्यतु एकवारं सूचनां पश्यतु एकवारं। शरीरस्य अवयवानां नामानि अत्र सन्ति। अत्र शरीरस्य वदतु कीदृशं पदम्? वदतु
पुल्लिङ्गम्।
अत्र एकवारं वदामि, शरीरं पदमस्ति, शरीरं शरीरं शरीराणि इति वदामः। इत्युक्ते शरीरम् इति पदं नपुंसकलिङ्गपदम्। अत्र शरीरस्य भवती जानाति एव पुंलिङ्गपदस्य अपि च नपुंसकलिङ्गपदस्य षष्ट्यन्तं रूपं समानम्। अतः अत्र शरीरस्य इति पदं नपुंसकलिङ्गम् एकवचनं षष्ट्यन्तं रूपम्। अपि च अत्र अवयवानां कीदृशं पदं कोऽपि वदतु?
षष्टिविभक्ति।
उत्तमं। वचनं किम्?
बहुवचनं।
उत्तमं, बहुवचनं। उत्तमं। किन्तु अत्र लिङ्गं किम्?
अवयवं नपुंसकलिङ्गम्।
अवयवः अवयवः
अवयवः पुंलिङ्गशब्दं भगिनि,
पुंलिङ्गशब्द पुंलिङ्गशब्द अवयवाः। अत्र किं वदामः, अत्र शरीर इति पदं नपुंसकलिङ्गपदं शरीरं भवति, किन्तु अकारान्त नपुंसकलिङ्गपदं शरीरं, किन्तु अवयवः इति पदम् अकारान्त पुंलिङ्गपदं। किन्तु अत्र षष्टिबहुवचनं दत्तमस्ति। साधारणतया वयं शरीरस्य अवयवानां अवयवस्य अथवा अवयवानां नामानि ज्ञातव्यानि खलु। साधारणतया अस्माकं शरीरे कानि कानि अङ्गानि सन्ति, अङ्गम् इति पदं नपुंसकलिङ्गपदं, किन्तु अवयवः इति पदं पुंलिङ्गपदम्। शरीरे बहवः अवयवाः सन्ति, तेषां नामानि कानि इति अस्माभिः ज्ञातव्यानि एव। अतः अत्र इमं पाठं दत्तमस्ति। अत्र इयं पाठः अस्ति, नामानि इति पदमस्ति, वयं पूर्वमेव चर्चितवन्तः। कोऽपि वदति वा नामानि कीदृशं पदम्? साईकृष्णमहोदय वदतु एकवारं। वदतु महोदय, नपुंसकलिङ्गम्। उत्तमम्। अत्र किन्तु नामानि इति पदं नकारान्तपदं, हलन्तपदं, तस्य प्रातिपदिकमस्ति नामन्। किन्तु प्रथमाविभक्त्यन्तरूपाणि नाम, नामनि, नामानि, अत्र बहुवचनरूपं दत्तमस्ति। किमर्थं तथा? शरीरे बहवः अवयवाः सन्ति इति कृत्वा बहुवचने वाक्यं वक्तव्यम्। अस्माकं शरीरे बहवः अवयवाः सन्ति, तेषां नामानि वक्तव्यानि इति एव अस्माकं कार्यम् अत्र। तानि उचिते स्थाने लिखतु। भवन्तः जानन्ति एव उचिते स्थाने कीदृशं रूपम्?
सप्तमी विभक्तिः एकवचनम्।
एकवचनम्। उत्तमम्। अत्र स्थानम् इति नपुंसकलिङ्गपदमस्ति, उचितं स्थानम्। अत्र उचितम् इति पदं स्थानम् इत्यस्य विशेषणं। लिखतु, लिखतु, अत्र लकारः कः?
लोट्लकारः।
उत्तमं, लोट्लकारः। उत्तमम्। अत्र केशाः इति पदमस्ति। कादम्बरी भगिनी एकवारं वदतु, अत्र पदं यथा भवती उक्तवती पुंलिङ्गपदमस्ति, अत्र अकारान्त पुंलिङ्गपदं केशाः। केशाः कुत्र सन्ति वदतु कादम्बरी भगिनी, एकं वाक्यं रचयतु केशाः इति योजयित्वा।
केशाः शिरः, शिरः अस्ति।
केशाः इति बहुवचनरूपं, बहुवचनरूपम् बहुवचनरूपमस्ति चेत् तदा किं वदामः? सन्ति। कुत्र सन्ति?
शिरः शिरस्य उपरि सन्ति.
शिरसः उपरि सन्ति, उत्तमम्. इत्युक्ते अत्र अथवा वयं प्रातःकाले किं वदामः, दर्पणस्य पुरतः, दर्पणः वयं जानीमः, दर्पणस्य पुरतः उपविश्य किं कुर्मः, केशप्रसाधनं कुर्मः, विकोम्ब अवर् हेर्. उत्तमं. द्वितीयं पदमस्ति अत्र शिरः इति पदमस्ति, किन्तु एतत् पदम् अकारान्तपदम् इव दृश्यते, किन्तु अकारान्तपदं नास्ति. एतत् पदं सकारान्तपदं, दन्त्यसकारान्तपदं, तत्र प्रातिपदिकमस्ति शिरस्. अत्र प्रथमाविभक्त्यन्तरूपाणि शिरः, शिरसि, शिरांसि, तादृशरूपाणि भवन्ति. अत्र शिरः इति पदमस्ति. शिरः इत्यस्य पर्यायवाचकपदम् अस्ति. मस्तकं, मस्तकम् इति वदामश्चेदपि शिरः एव. अपि च अत्र ललाटः इति पदमस्ति. ललाटः इत्युक्ते कोऽपि वदतु, ललाटः इत्युक्ते किम् वदतु भगिनि? फोर्हेड्. उत्तमम्. उत्तमं. फोर्हेड् ललाटः इत्युक्ते अत्र यदि भवन्
मूलपदं प्रातिपदिकं किं भगिनि? ललाटः प्रातिपदिकं धातु अस्ति वा
तत्र? अत्र अत्र एकं वदामि. अत्र ललाटः इति पदं सुबन्तपदं, सुबन्तपदम् इत्युक्ते नामपदं, नामपदम् इत्युक्ते नौन्. साधारणतया नामपदानि प्रातिपदिकात् आयान्ति. द नौन्स् आर् डिरैव्ड् फ्रम् प्रातिपदिकं, बट् द क्रियापदम् इस् डिरैव्ड् फ्रम् धातु. अत्र यानि यानि पदानि दत्तानि तानि सर्वाणि नामपदानि. नामपदानि इत्युक्ते इत्युक्ते सुबन्तपदानि. सुबन्तपदानि किमर्थं वदामः? सुबन्त इति पदं कथम् आगतम् इत्युक्ते एतेषां सर्वेषां पदानाम् अन्ते सुप् प्रत्ययः अस्ति. सुप् प्रत्ययः यस्य अन्ते अस्ति तेषां नाम अस्ति सुबन्तपदम्. एतानि पदानि सर्वाणि अपि सुबन्तपदानि. किन्तु क्रियापदानाम् अन्यनाम अस्ति तिङ्गन्तपदम्. किमर्थं तिङ्गन्तपदम् इति वदामः? तेषाम् अन्ते तिङ् प्रत्ययाः सन्ति. अतः क्रियापदानि, क्रियापदानाम् अन्यनाम अस्ति तिङ्गन्तपदानि. तिङ्गन्तपदानि इत्युक्ते तेषाम् अन्ते तिङ् प्रत्ययः अस्ति, किन्तु अत्र नामपदानाम् अन्ते सुप्रत्ययः अस्ति. अतः अत्र एतेषां पदानि, एतानि पदानि प्रातिपदिकात् आयान्ति. तदर्थं किं वदामः, किं प्रष्टव्यं? हौ शुड् वि आस्क् द क्वश्चन्? कस्मात् प्रातिपदिकात् एतत् पदम् आयाति इति वक्तव्यम्. अत्र केश इति पदम् अकारान्तपदम्. अत्र प्रातिपदिकमस्ति केश इति प्रातिपदिकम्, अकारान्तप्रातिपदिकं. किन्तु शिरः इति वदामश्चेत् तत्र शिरस् इति सकारान्तप्रातिपदिकं. ललाटः इति पदं नपुंसकलिङ्गपदमपि अस्ति, पुंलिङ्गपदमपि अस्ति. ललाटः यथा भगिनी उक्तवती, ललाटः इति पदं फोर्हेड् इति वदामः. यदा अहं पदं वदामि, भवन्तः सर्वे चित्रं पश्यन्तु, तेन वयं सर्वे सम्यक् रीत्या अभिज्ञातुं शक्नुमः. वि केन् रेकग्नैस् द पार्ट्. ललाटः इत्युक्ते फोर्हेड्. भवन्तः सर्वे श्रुतवन्तः एव, एकः श्लोकः अस्ति, कस्तूरीतिलकं ललाटि फल ललाटफलके इति एकः श्लोकः अस्ति. अपि च साधारणतया भारतदेशे केचन वदन्ति, किं वदन्ति, ललाटलिखितं. यत् ललाटे लिखितं तत् तदेव भवति इति वदन्ति. ललाटलिखितम् एतत् पदं समस्तपदं. तथा एव ललाटरेखा इति वदामश्चेत् द लैन्स् आन् द फोर्हेड् इति अर्थः. अपि च ललाटाक्षः इत्युक्ते शिवः ललाट ललाटप्रदेशे यस्य अक्ष नेत्रमस्ति इति कारणतः ललाटाक्षः इत्युक्ते शिवः. अत्र ललाटः इति किञ्चित् नूतनं पदं, किन्तु तस्य अर्थः तु फोर् हेड् इति वदामः. अत्र कर्णः इति पदमस्ति. कर्णः इति पुंलिङ्गपदम्, अकारान्त पुंलिङ्गपदं. तस्य कृते अन्यत् पदम् अस्ति वा इति चिन्तनं कुर्मः चेत् अस्ति. श्रोत्रम् इति वदामः. श्रोत्रम् इति पदं नपुंसकलिङ्गपदं, किन्तु कर्णः इति पदं पुंलिङ्गपदम्. अपि च कर्णैः किं कुर्मः? कर्णाभ्यां केवलं कर्णद्वयमेव अस्ति. कर्णाभ्यां वयं किमपि शृणुमः. यदा अहं वदामि भवन्तः सर्वे श्रोतुं शक्नुवन्ति. कथं? कर्णाभ्याम् एव भवन्तः सर्वे श्रोतुं शक्नुवन्ति. अत्र कर्णः इति पदस्य पर्यायवाचकपदम् इत्युक्ते सिनोनिम्. किम् इत्युक्ते श्रोत्रम्. श्रोत्रम् इति पर्यायवाचकपदम्. अग्रिमं पदमस्ति नासिका. नासिका कीदृशं पदं? साईकृष्णमहोदय वदतु.
नासिका इस् नोस्.
कीदृशं पदं? लिङ्गं वचनं वदतु.
नासिका इस् स्त्रीलिङ्गपदम्.
स्त्रीलिङ्गपदम्, उत्तमं. नासिकया भवान् किं करोति? वदतु, कोऽपि वदतु. उत्तमम्. इत्युक्ते अत्र संस्कृतभाषायां किं वदामः इत्युक्ते जिघ्रामि, जिघ्रति. जिघ्रति, जिघ्रति इत्युक्ते स्मेल्. अहं किं कथं वक्तव्यम्? अहं नासिकया जिघ्रामि. भवान् नासिकया जिघ्रति, स्मेल् करोति. उत्तमम्. इत्युक्ते नासिका इति पदम् आकारान्तस्त्रीलिङ्गपदं, यथा लता शब्दवत्. किन्तु अत्र पश्यन्तु, मुखम् इति पदमस्ति. एकवारं सर्वे चित्रं पश्यन्तु. मुखम् इत्युक्ते संस्कृतभाषायां मौत् इति अर्थः, न तु फेस्. Face is different, mouth is different. किन्तु संस्कृतभाषायां मुखम् इत्युक्ते मौत्. मुखेन किं कुर्मः? किमपि खादितुं शक्नुमः अथवा किमपि वक्तुं शक्नुमः. किन्तु फेस् इति वदामश्चेत् किं वदामः? फेस् इत्युक्ते वदनम्. अत्र न दत्तमस्ति पदं, यद्यपि अत्र फेस् इति वदामश्चेत् वदनम्. अत्र वदनम् इति पदं वद् धातोः ल्युडन्तरूपं. वद् धातुः अस्ति. वद् धातोः रूपं किं? वदति. सा बालिका वदति, कादम्बरी वदति इति वाक्यमस्ति. तत्र वद् धातुः अस्ति. वद् धातोः रूपमेव वदनं, ल्युडन्तरूपं. किन्तु वदनमित्युक्ते मुखम् इति किमर्थम् आगतम्? किमर्थम् इत्युक्ते वदतु.
तेलुगुभाषे प्राकृतिकभाषे मुखं, मुखम् इति प्रवृत्तः.
इत्युक्ते अत्र मुखं, मुखमित्युक्ते माउत्, वदनम् इत्युक्ते फेस्. तत्र भेदः अस्ति, भेदः अस्ति एव. अपि च अत्र मुखं पश्यामश्चेत् मुखस्य अन्ते के सन्ति? दन्ताः सन्ति. दन्तैः किं कुर् दन्तैः किं कुर्मः? दन्तैः सम्यक्तया चर्वणं कुर्मः, आहारस्य चर्वणं. चूयिङ्ग् द फूड्, चूयिङ्ग् इति वदामः. मुखस्य अन्ते दन्ताः सन्ति, दन्तैः आहारस्य चर्वणं कुर्मः. अत्र मुखम् इति पदं नपुंसकलिङ्गपदमस्ति. अग्रिमं पदं कपोलः. कपोलः इत्युक्ते किं, कोऽपि वदतु. उत्तमं, कादम्बरी भगिनी उक्तवती. कपोलः इत्युक्ते चीक्स्. तत्र ब्राकेट्स् सन्ति, सर्वे लिखन्तु, तत्र नामानि लिखन्तु शरीरस्य अवयवानां कृते. तत्र तत्र ब्राकेट्स् आवरणे आवरणे लिखन्तु. ब्राकेट् इत्युक्ते आवरणम् इति वदामः. उत्तमं. कपोलः इति पदं पुंलिङ्गपदं. कपोलः इत्युक्ते चीक्स्. अत्र कण्ठः इति पदमस्ति. साधारणतया वयं अहं किं वदामि, सर्वे एकवारं सुबन्तपदानि कण्ठस्थीकुर्वन्तु इति अहं वदामि. सर्वे एकवारं सुबन्तपदानि, सुबन्तपदानां रूपाणि कण्ठस्थीकुर्वन्तु इति वदामि. कण्ठस्थीकरणम् इति पदं कथम् आगतम् इत्युक्ते, कण्ठस्थीकरणम् इत्युक्ते तानि सर्वाणि भवन्तः सर्वे कण्ठे स्थापयन्ति. कण्ठ स्थः, स्थाधातुतः स्था इति पदम् आगतम्. अत्र अहम् एकं वदामि. कण्ठः इत्युक्ते थ्रोट्, किन्तु नेक् इति वदामश्चेत् किं वदामः, कोऽपि वदतु जानाति चेत्.
अहं जानामि.
अत्र ग्रीवा इति पदम्. अत्र पदं तु भिन्नं पदं, कण्ठः भिन्नं पदं, ग्रीवा इति भिन्नं पदं. कण्ठः पुंलिङ्गपदं, कण्ठः इत्युक्ते थ्रोट्, ग्रीवा इत्युक्ते नेक् इति वदामः. अग्रिमं पदमस्ति वक्षस्थलम् इति पदमस्ति. वक्षस्थलम् इत्युक्ते चेस्ट्. अत्र वक्षस्थलम् इत्यस्य कृते अन्यत् पदमस्ति उरस्. एकं सकारान्तपदमस्ति उरस्. तत्र रूपाणि किं कथं भवन्ति, उरः उरसि उरांसि, यथा शिरः शिरसि शिरांसि, मनः मनसि मनांसि, तादृशरीत्या उरः इति एकं पदमस्ति. उरः इत्युक्ते वक्षस्थलं, किन्तु सकारान्तपदं. साधारणतया उरगः इति एकं पदमस्ति संस्कृतभाषायाम्. उरगः इत्युक्ते सर्पः, किन्तु सर्पस्य नाम उरगः कथं भवति इत्युक्ते, तत्र उरगः इति पदं समस्तपदम्. अत्र विग्रहवाक्यं कथं वदामः, उरसा गच्छति, उरसा गच्छति, अतः उरगः. उरगः इत्युक्ते सर्पः. उरस् इत्युक्ते अत्र वक्षस्थलं, किन्तु उरस् इति प्रातिपदिकमस्ति, उरः इति प्रथमाविभक्त्यन्तरूपमस्ति. अपि च स्कन्धः, स्कन्धः इत्युक्ते अप्पर् पार्ट् आफ् द शोल्डर् इति वदामः. भुजः, एतदपि पुंलिङ्गपदं. भुजः इत्युक्ते किं, कादम्बरी भगिनी वदतु. भुजः, शोल्डर्, आम् किमपि आम्. अत्र अङ्गुली इति पदमस्ति. लक्ष्मी भगिनी भवती वदतु, अत्र लिङ्गं किं,
स्त्रीलिङ्गं.
स्त्रीलिङ्गं भवती श्रुतवती वा, अङ्गुलीयकं,
फिङ्गर्स्.
अङ्गुलीयकम् इत्युक्ते किं, अत्र अङ्गुली इति पदमस्ति. अङ्गुली इति पदं स्त्रीलिङ्गपदं भवती जानाति एव, किन्तु अन्यत् पदमस्ति, साधारणं पदमेव. अङ्गुलीयकम्, अङ्गुलीयकम् इत्युक्ते फिङ्गर् रिङ्ग्. अङ्गुलीयकम् इत्युक्ते फिङ्गर् रिङ्ग्. रामायणे सीता अङ्गुली तत्र रामः अङ्गुलीयकं ददाति सीतायै तथा अपि च नखः इति पदमस्ति. नखः इत्युक्ते किं वदतु लक्ष्मी भगिनी?
नेल्स्.
नेल्स्. रामायणे एका महिला अस्ति, तस्याः नाम शूर्पणखा. किन्तु तस्य नाम शूर्पणखा किमर्थम् अस्ति इत्युक्ते अत्र तस्याः नखाः शूर्पाः इव. शूर्पः इत्युक्ते शूर्पः, शूर्पाः इव नखाः यस्याः सा शूर्पणखा इति वदामः. इत्युक्ते तत्र रामायणे एका राक्षसी अस्ति, तस्याः नाम शूर्पणखा. तस्याः नखाः कीदृशाः आसन् इत्युक्ते शूर्पाः इव. शूर्पः इत्युक्ते विन्नो, आङ्ग्लभाषायां विन्नो. That is an instrument used to blow the husk. Shurpaha ichukte vinnow iti vadamaha. Uttamam. Nakaha. Nakaha ichukte nails. Anantaram padaha. Padaha iti vayam jani maha. Vayam sadharanateya padabhyam chalamaha. Padadvayam asti. पादः इत्यस्य कृते अन्यत् पदमस्ति चरणं, चरणयुग्मम् अथवा अङ्घ्रि. अङ्घ्रि इति पदम् अपि संस्कृतभाषायाम् अस्ति. अङ्घ्रि इत्युक्ते पादः. अङ्घ्रिद्वयं, चरणद्वयं, पादद्वयं तथा बहूनि अन्यानि पदानि अपि सन्ति. अपि च उदरम्. उदरम् इत्युक्ते उदरमित्युक्ते उदरम्. अपि च कटिः. कटिः इत्युक्ते वेस्ट् इति वदामः. अत्र यद्यपि अत्र एकं पदं न दत्तमस्ति, ओष्ठः इति एकं पदमस्ति संस्कृतभाषायाम्. ओष्ठः इत्युक्ते
लिप्स्.
लिप्स्. उत्तमम्. ओष्ठः इति पदमस्ति. अत्र आहत्य अहं गणनं कृतवती, अतः वदामि. अत्र षोडशपदानि दत्तानि. भवन्तः सर्वे कक्षायाः अनन्तरम् अत्र आवरणे लिखन्तु एतानि नामानि. शरीरस्य कस्य भागस्य नाम किम् अत्र आवरणे लिखन्तु. अनन्तरम् अग्रिमे पुटे एकः अभ्यासः अस्ति. कीदृशः अभ्यासः अस्ति अत्र? लक्ष्मी भगिनी भवती करोतु एकवारम्.
एतान् वर्णान् उपयुज्य शरीरावयवानां नामानि लिखतु.
कति नामानि तत्र? संख्या दत्ता. संख्या वदतु, संख्यां वदतु.
फस्ट् वन् इस् ललाटः.
अत्र दश नामानि लेखनीयानि. अत्र एतान् वर्णान् उपयुज्य इति लिखितमस्ति. एकवारं वदतु एतान् वर्णान्. अत्र रूपं किम्? कादम्बरी भगिनी वदतु एकवारम्.
तृतीया विभक्ति बहुवचनम्.
पुनः उच्चैः वदतु एकवारं.
द्वितीया विभक्ति बहुवचनम्.
उत्तमं. द्वितीया बहुवचनं. भवती कथं ज्ञातवती? वदतु. अत्र पश्यतु, अत्र अत्र एकवारं पश्यन्तु, एतान् वर्णान् इति पदमस्ति. अत्र वर्णाः, अत्र आकारान्त पुंलिङ्गमस्ति चेदेव अत्र द्वितीया बहुवचनं वर्णान् भवति. यथा रामशब्दवत् रामः रामौ रामाः, रामं रामौ रामान्. अत्र पदमस्ति एतः वर्णः, प्रथमाविभक्ति एकवचनरूपम्, एषः वर्णः. किन्तु अत्र एतान् वर्णान् इति द्वितीया बहुवचनरूपम् अस्ति. साधारणतया पदं द्वितीयाविभक्त्याम् अस्ति चेत् तत् पदं तस्मिन् वाक्ये कर्मपदं भवति. अत्र कर्मपदं किं? वर्णान्. अत्र एतान् इति पदं वर्णान् इति शब्दस्य विशेषणमस्ति. किमर्थम् अत्र कर्मपदं भवति इति पश्यामश्चेत्, उपयुज्य इति पदमस्ति. उपयुज्य कीदृशं पदं? कादम्बरी भगिनी वदतु. नो चेत् तत्र शायिकृष्ण वदतु वदतु.
तृतीया विभक्ति
उपयुज्य वदतु महोदय, वदतु.
क्रियापदं.
क्रियापदं, किन्तु अत्र क्रियापदम् इति न वदामः, कृदन्तपदम् इति वदामः. किमर्थम् इत्युक्ते अत्र उप इति उपसर्गः अस्ति, युजिर् धातुः अस्ति, उपयुज्य इति रूपं ल्यबन्तरूपं, ल्यप् प्रत्ययान्तरूपं. वयं पूर्वमेव पठितवन्तः क्त्वान्तरूपाणां विषये. क्त्वान्तरूपं कुत्र आयाति? तत्र क्रियाद्वयमस्ति चेत् पूर्वकालिकी क्रियायाः क्त्वान्तरूपं भवति. केवलं क्रियापदम् अस्ति चेत् क्त्वान्तरूपं सिद्ध्यति, किन्तु तस्मिन् क्रियापदे उपसर्गः अस्ति चेत् ल्यबन्तरूपं सिद्ध्यति. अत्र उप इति पदम् उपसर्गः अस्ति इति कारणतः तत्र ल्यबन्तरूपम् अस्ति. ल्यबन्तरूपम् अथवा क्त्वान्तरूपम् अपि कर्मपदं स्वीकरोति. अतः वर्णान् इति पदं कर्मपदमस्ति, उपयुज्य इति ल्यबन्तरूपं. शरीर अवयवानाम् अत्र पदम् एकवारं पश्यामश्चेत् शरीरावयवानाम् इति दत्तमस्ति. षष्ठी बहुवचनान्तरूपमस्ति, किन्तु अत्र शरीर प्लस् अवयवानां सवर्णदीर्घसन्धिः अपि अस्ति. एतान् वर्णान् उपयुज्य इत्युक्ते अत्र सूचनां पश्यामश्चेत् किम् अवगन्तुं शक्नुमः इत्युक्ते, अत्र एकं कोष्टकमस्ति, कोष्टके बहूनि अक्षराणि दत्तानि. अक्षराणि इति पदं नपुंसकलिङ्गपदम्, अक्षरम् अक्षराणि. किन्तु वर्णः वर्णाः, वर्णः इति पदं पुंलिङ्गपदं, वर्णाः वर्णाः अथवा अक्षरम् अक्षराणि, अर्थः तु समानः किन्तु भिन्नं पदम्. अत्र वर्णाः दत्ताः, अत्र एतान् वर्णान् उपयुज्य एतेषां वर्णानाम् उपयोगं कृत्वा किं कर्तव्यम् इत्युक्ते, शरीर अवयवानां दशनामानि लेखनीयानि. अत्र दशनामानि लेखितुं शक्नुमः वा न वा इति एकवारं चिन्तनं कुर्मः. लक्ष्मीभगिनी, अत्र ललाटः इति पदं पूर्वमेव लिखितमस्ति, भवती अत्र कोष्ठके अक्षराणि सन्ति, अक्षराणि दृष्ट्वा अन्यत् पदं वदतु. एकवारं कोऽपि लक्ष्मीभगिनी वा अथवा साईकृष्णमहोदय वा अत्र
नासिका,
नासिका पश्यन्तु, अत्र ना इति अक्षरमस्ति, अपि च सी अपि अस्ति, का अपि अस्ति. अपि च तृतीयं पदं नेत्र इति पदमस्ति, पश्यन्तु. अपि च भ्रू इति पदमस्ति, भ्रू इति पदं नूतनं पदम् अस्माकं कृते. भ्रू इति पदं त्रीलिङ्गपदं, भ्रू इत्युक्ते ऐब्रो, न ऐब्रो न, तत्र the space between the two eyebrows is called bhru. Sanskrita bhashayam atrapi kapolah kapola iti padam asti. Nasika asti, nakha asti,
kati
kati asti. Ataha kevalam दश नामानि एव अत्र लेखनीयानि. अतः भवन्तः सर्वे गृहपाठरूपेण एतम् अभ्यासं कुर्वन्तु. तत्र अक्षराणि दत्तानि, केवलं दशनामानि. यदि भवन्तः कर्तुमिच्छन्ति चेत् इतोपि वक्तुं शक्नुवन्ति चेत् नामानि, शरीर अवयवानां नामानि लिखन्तु. अभ्यासः भवति तेन. अपि च अत्र इदानीं पर्यन्तं वयं शरीरस्य भागानां, शरीरस्य अवयवानां विषये किञ्चित् वयं परिशीलितवन्तः. शरीरस्य विषये अहम् एकं वदामि अधुना. किमित्युक्ते संस्कृतभाषायाम् एका सूक्तिः अस्ति. सूक्तिः किम् इत्युक्ते, शरीरमाद्यं खलु धर्मसाधनम् इति एका सूक्तिः. इट्स् अ वण्डर्फुल् सुभाषितं. शरीरमाद्यं खलु धर्मसाधनम् इत्युक्ते किम् इत्युक्ते, एषा एका सूक्तिः अस्ति. केन लिखितम् इत्युक्ते, कालिदासकविना विरचितं वाक्यम्. एतद् वाक्यं कालिदासः कुमारसम्भवं नाम्ना एकं काव्यं लिखितवान्. तस्मिन् कुमारसम्भवकाव्ये एतद् वाक्यं लिखितमस्ति. तस्मिन् काव्ये भगवान् शङ्करः पार्वतीं प्रति एतद् वाक्यं वदति. इत्युक्ते, तस्मिन् कुमारसम्भवकाव्ये कालिदासः पार्वतीपरमेश्वरयोः मध्ये प्रणयगाथां रचितवान् सः. किन्तु अत्र वाक्यं किम्? एकवारं वाक्यं पश्यामश्चेत्, शरीरमाद्यं खलु धर्मसाधनम् इत्युक्ते किम् इत्युक्ते, धर्मसाधनं शरीरम् आद्यं खलु इत्युक्ते, एतत् शरीरं धर्मसाधनं खलु इति सः वदति. इत्युक्ते, शरीरं विना यदि शरीरं नास्ति चेत् धर्म आचरणं कर्तुं न शक्यम्. शरीरं विना धर्माचरणम् असाध्यम्. अस्माकं जीवने सर्वेषां कर्मणां मूलसाधनं शरीरम् एव. शरीरं विना धर्माचरणम् अनिवार्यम्. शरीरस्य आरोग्येण एव वयम् अस्माभिः सर्वाणि अभीष्टानि पूरितानि. इत्युक्ते, अस्माकम् अभीष्टानि सिद्ध्यन्ति शरीर आरोग्येण एव. यदि एकः पुरुषः स्वस्थः अस्ति चेदेव धर्माचरणं कर्तुं शक्नोति. इत्युक्ते, भिन्नरीत्या वदामि चेत्, स्वस्थेन पुरुषेण एव धर्माचरणं कर्तुं शक्यते. यदि पुरुषः रोगाक्रान्तः भवति चेत् सः किमपि कर्तुं न शक्नोति. रोगाक्रान्तेन पुरुषेण किमपि कार्यं कर्तुं न शक्यते. अतः धर्माचरणार्थं किम् आवश्यकम्? धर्माचरणार्थम् आरोग्यसहितं शरीरम् आवश्यकम्. अतः अस्माकं कार्यं किम्? कार्यं किम् इत्युक्ते, अस्माकं शरीरस्य आरोग्यरक्षणं एव कर्तव्यम्. इत्युक्ते किं वदामः? धर्मसाधनभूतस्य एतस्य शरीरस्य रक्षणं एव अस्माकं कर्तव्यम्. किन्तु शरीरस्य रक्षणं कथं कुर्मः इत्युक्ते, किं वदामः? भोजनपानादिकनियन्त्रणेन समीचीनम् आरोग्यं प्राप्तुं शक्नुमः. अथवा आहारविहाराणां नियन्त्रणेन एव समीचीनम् आरोग्यं प्राप्तुं शक्नुमः. एतावता अत्र नीतिः का इत्युक्ते अस्माकं शरीरस्य आरोग्यसंरक्षणम् एव अस्माकं कार्यं. शरीरस्य आरोग्यं सम्यक् नास्ति चेत् किमपि धर्माचरणं कर्तुं न शक्यं. शरीरं विना धर्माचरणम् असाध्यम् इति कालिदासः तस्मिन् श्लोके तस्मिन् वाक्ये उक्तवान्. वाक्यं किं? शरीरमाद्यं खलु धर्मसाधनम् इति वाक्यम्. उत्तमम्. अनन्तरं वयम् अत्र अस्माकं पार्श्वे एका कथा अस्ति, दरिद्रतायाः भ्रान्तिः इति कथा अस्ति. सर्वे एकवारं तत् करपत्रं पुरतः स्थापयन्तु, तां कथां शीघ्रं पठिष्यामः. अत्र एकवारं उत्तमा कथा, बालकृष्णहेगडे महोदयेन विरचिता कथा अस्ति. अत्र सायिकृष्णमहोदय भवान् पठतु अत्र प्रथमपरिच्छेदम्.
भगिनी, विच् वन्?
दरिद्रतायाः भ्रान्तिः इति कथा अस्ति.
सः भवति दरिद्रः यस्य तृष्णा विशाला.
न न महोदय, अत्र पश्यतु, अत्र दरिद्रतायाः भ्रान्तिः इति नाम्ना एका कथा अस्ति. अहं करपत्रं प्रेषितवती, अपि च कथायाः लिङ्क् अपि प्रेषितवती. कादम्बरी भगिनी, भवत्याः पार्श्वे अस्ति वा?
आं भगिनी, अस्ति.
प्रथमपरिच्छेदं पठतु एकवारम्.
अस्तु. कश्चन दरिद्रः आसीत्, सः सर्वदा सत्यमेव वदामि.
भगिनी, अत्र पश्यतु, अत्र परिच्छेदं कथमस्ति इत्युक्ते, सः कश्चन दरिद्रः आसीत्, सः एकदा तथा पठनीयम्.
सः एकदा
अब्रहाम् लिंकन्, पठति वा? अवगतवती वा तत्र किं लिखितमस्ति? अब्रहाम् लिंकन्.
आम्, अब्रहाम् लिंकन् दरिद्रः इत्यत्र नास्ति एव सन्देहः.
न न न न न, तथा न. लक्ष्मी भगिनी अथवा सरल शैलजा पठतु.
कश्चन दरिद्रः आसीत्, सः एकदा अब्रहाम् लिंकन् महोदयस्य समीपं गतवान्. अहं बहु दरिद्रः, मम गृहं नास्ति, धनं नास्ति, दर्तुं वस्त्राणि अपि न सन्ति, खादितुम् अन्नं नास्ति, अतः किमपि ददातु कृपया इति.
इति वदनं रोदनं कृतवान्. उत्तमम्. एकवारं सर्वेषां पादे नास्ति वा महोदय?
अपि अस्ति.
अस्ति वा? अस्तु. प्रथमपरि सर्वेषां पार्श्वे कथा अस्ति वा? अस्ति. अस्ति इति भाति. अधुना वयं किं कुर्मः इत्युक्ते, एकम् एकं वाक्यं स्वीकृत्य खण्डशः अथवा पङ्क्तिशः पश्येम. प्रथमं परिच्छेदं पश्यन्तु एकवारं, प्रत्येकं वाक्यं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः अधुना. अत्र शैलजा भगिनी एकवारं वदतु, दरिद्रतायाः भ्रान्तिः, अत्र कथायाः शीर्षिका का?
दरिद्रतायाः, दरिद्रता स्त्रीलिङ्गपदमस्ति, दरिद्रतायाः षष्टिविभक्तिः एकवचनं, भ्रान्तिः अपि स्त्रीलिङ्गशब्दस्य एकवचनम्.
उत्तमम्. उत्तमं भगिनि, उत्तमम्. अत्र कथायाः शीर्षिका अस्ति. शीर्षिका इत्युक्ते टैटल्. किं दरिद्रतायाः भ्रान्तिः. अत्र यथा भगिनी उक्तवती षष्ट्यन्तं रूपम् अस्ति भ्रान्तिः. कीदृशं पदं भ्रान्तिः यदि भवन्तः ज्ञातुमिच्छन्ति चेत् अत्र भ्रम् इति धातुः अस्ति. भ्रम् धातोः रूपमेव भ्रान्तिः. तत्र क्तिन् क्तिन् प्रत्ययान्तरूपम् इति वदामः. भ्रान्तिः इत्युक्ते भ्रमः. चित्तभ्रान्तिः इति वदामः. चित्तभ्रान्तिः इत्युक्ते कन्फ्यूजन् अथवा मिथ्यादृष्टिः इति वदामः. भ्रम् धातोः रूपमेव भ्रान्तिः. अत्र प्रथमं वाक्यं कश्चन दरिद्रः आसीत्. अस्मिन् अस्यां कथायां किं भवति, पूर्वतनकाले एकः दरिद्रः आसीत्. आसीत् कीदृशं पदं भगिनी वदतु.
आसीत् लङ्लकारस्य अस् अस् धातुस्य धातुस्य लङ्लकारम्.
उत्तमम् उत्तमं भगिनि. लङ्लकाररूपम् इत्युक्ते भूतकालरूपं. किन्तु दरिद्रः इति पदं एकवचने अस्ति इति कारणतः प्रथमपुरुषे एकवचनरूपम् आसीत्. किन्तु अत्र आसीत् इति भूतकालरूपम् अस्ति, किन्तु तस्य नवरूपाणि भवन्ति. कोऽपि वदति वा तस्य नवरूपाणि एकवारं वदतु भगिनि.
अस्ति 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 सः सन्ति.
न न न न भगिनि, अस्ति स्तः सन्ति वर्तमानकालरूपाणि, किन्तु आसीत् इति पदं भूतकालरूपमस्ति. किन्तु भूतकालरूपाणि अपि नवरूपाणि भवन्ति. अहं वदामि, भवन्तः सर्वे शृण्वन्तु. अत्र आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म. यदि वयम् एतानि रूपाणि सम्यक् रीत्या जानीमश्चेत् सुलभतया वाक्यरचनां कर्तुं शक्नुमः. अत्र सः दरिद्रः किं कृतवान्, एकवारं सः एकदा अब्राहम् लिंकन् महोदयस्य समीपं गतवान्. कुत्र गतवान् वदतु भगिनि.
कुत्र समीपं गतवान्? महोदयस्य समीपं गतवान्.
उत्तमम्. अत्र किमर्थम् अब्राहम् लिंकनस्य इति न लिखितमस्ति? किमर्थं लिंकन् महोदयस्य इति लिखितमस्ति? किमर्थं
लिंकन् महोदयस्य लिंकन् महोदयस्य लिंकन् नकारान्तः
वदतु महोदय.
समस्तपदम्.
अत्र किं वदामः इत्युक्ते अब्राहम् लिंकन् इति पदम् आङ्ग्लभाषापदम्. आङ्ग्लभाषापदं तदर्थं रामस्य कृष्णस्य तथा वक्तुं न शक्यम्. अतः अब्राहम् लिंकन् महोदयः महोदयः इति वदामश्चेत् तत्र आदररूपेण वि आर् रेस्पेक्टिङ्ग् हिम् रेस्पेक्ट्फुल्लि इट् वास् रिटन् विथ् रेस्पेक्ट्. अब्राहम् लिंकन् महोदयस्य समीपं गतवान् सः. अत्र समीप इति पदं विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति समीपं तथा. सः दरिद्रः अब्राहम् लिंकन् महोदयस्य समीपं गतवान्. गत्वा किं कृतवान् सः? उक्तवान् महोदयं प्रति उक्तवान्. किम् उक्तवान् वदतु.
अहं बहु दरिद्रः, मम गृहं नास्ति, धनं नास्ति, धर्तुं वस्त्राणि अपि नास्ति, खादितुम् अन्नं नास्ति, अतः किमपि ददातु कृपया इति रोदितवान् रोदनं कृतवान्.
उत्तमम्. अत्र पश्यन्तु, अत्र धर्तुम् इति एकं पदमस्ति. धर्तुं वयं पूर्वमेव पठितवन्तः तुमुन्नन्तरूपाणि अभ्यासपुस्तके पूर्वस्मिन् पुटे वयं पठितवन्तः. ध्रुधातोः रूपमेव धर्तुं तुमुन्नन्तं रूपं. धर्तुमिच्छामश्चेदपि मम पार्श्वे वस्त्राणि न सन्ति, अहम् अन्नं खादितुं अत्रापि तुम् अनन्तं रूपम् अस्ति. खादितुं, गन्तुं, पठितुं, वयं पठितवन्तः एतानि पदानि. खादितुं, मम पार्श्वे अन्नं नास्ति, गृहं नास्ति, धनं नास्ति. अतः गते सप्ताहे एव वयं पठितवन्तः अतः. अत्र वाक्यं यथ योजयित्वा कथं वदामः? मम पार्श्वे
मम पार्श्वे धनं नास्ति.
अतः न पश्यतु, अत्र मम पार्श्वे धनं नास्ति, अतः धनं ददातु. अत्र भिन्नरीत्या वदामश्चेत् धनं ददातु मह्यं यतः. वदतु महोदय.
यतः धनं नास्ति.
यतः धनं नास्ति. अत्र यत्र कुत्रापि अतः इति पदम् आगच्छति चेत् यतः अपि वयं विपरीतरीत्या इत्युक्ते कारणवाक्येन सह वयं यतः योजयित्वा वदामश्चेत् वयं यतः अपि योजयित्वा वाक्यरचनां कर्तुं शक्नुमः. अपि च प्रथमे परिच्छेदे वदन् इति पदमस्ति. कीदृशं पदम्?
वदन् शत्रुपत्रे.
उत्तमं. वदन् इति दरिद्रः इति, दरिद्रः इत्यस्य विशेषणमस्ति. वदन् इति शत्रन्तं रूपं. तत्र प्रातिपदिकमस्ति वदत्. इत्युक्ते शत्रन्तरूपम् इत्युक्ते किं, तस्मिन् विषये वयम् अग्रे गत्वा पठिष्यामः. परन्तु सः रोदितवान् अपि च रुदितवान् क्षम्यतां रुदितवान् अपि च सः अब्रहां लिङ्कन् महोदयं पृष्टवान्, रोदनं कृतवान्. तत्र रोदनम् इति पदं ल्युट् प्रत्ययान्तरूपं, रुद् धातोः रूपमेव रोदनं. किन्तु लट्लकाररूपमस्ति रोदिति. रोदिति, रुदितः, रुदन्ति, तादृशरीत्या रूपाणि भवन्ति. अत्र रोदनं कृतवान् इति अस्ति, किन्तु वयं भूतकालार्धे अरुदत् रोदिति इत्यस्य भूतकालरूपमस्ति अरुदत्. अरुदत् इति पदं योजयित्वा वदामश्चेदपि तत्र समीचीनं रूपं सिद्ध्यति, समीचीनः अर्थः अर्थं तत्र आगच्छति. उत्तमं. साई कृष्णमहोदय, भवान् पठतु अग्रिमं परिच्छेदम्.
तस्य वचनं श्रुत्वा लिङ्कन् महोदयः पृष्टवान्, भवान् निश्चयेत दरिद्रः किम् इति. अहं असत्यं न वदामि, सर्वदा सत्यमेव वदामि. अहं दरिद्रः इत्यत्र नास्ति एव महोदयः, नास्ति एव सन्देहः इति उक्तवान् दरिद्रः.
उत्तमम्. अत्र किं दत्तमस्ति? तस्य वचनं श्रुत्वा. तस्य वचनम् इत्युक्ते कस्य वचनं?
दरिद्रस्य
वचनं श्रुत्वा. अत्र वचनं इति पदमस्ति. वचनम् इति पदमपि लुडन्तरूपं, वच् धातोः रूपम्. उक्ति, क्षम्यतां वक्ति, वच् धातोः रूपं वक्ति, किन्तु ल्युडन्तरूपं वचनं. दरिद्रस्य वचनं श्रुत्वा लिङ्कन् महोदयः पृष्टवान्. तत्र पृष्टवान् कीदृशं रूपम्? भूतकालरूपं कृदन्तपदम् इति वदामः. किमर्थं चेत् तत्र प्रच्छधातुतः पृष्टवान् इति रूपम् आगच्छति, कृदन्तरूपं. किन्तु तत्र प्रच्छधातोः लट्लकाररूपं किम्?
पश्यति.
दृष्धातोः रूपं पश्यति. न अत्र पश्यतु महोदय, दृष्धातोः रूपं पश्यति, किन्तु अत्र पृष्टवान्, अत्र लट्लकाररूपं पृच्छति. प्रच्छधातोः रूपं पृच्छति किन्तु अत्र पृष्टवान् प्रश्नं पृष्टवान् अत्र अत्र पृच्छति इति लट्लकाररूपं किन्तु अत्र तवतु तवतु प्रत्ययान्तरूपं दत्तमस्ति पृष्टवान् पृष्टवती पृष्टवन्तः पृष्टवत्यः तादृशानुरूपाणि वयं पठितवन्तः पूर्वमेव अधुना लिङ्कन् महोदयः दरिद्रं पृच्छति किं पृच्छति अपृच्छत् किं भवान् निश्चयेन दरिद्रः किं निश्चयेन एतत् पदमपि वयं गते सप्ताहे वयं पठितवन्तः भवान् निश्चयेन दरिद्रः किं फर् शोर् सर्टन्लि आर् यू ए बेगर् इति सः पृच्छति तदा दरिद्रः किम् उत्तरं ददाति अहम् असत्यं न वदामि असत्यम् इति पदमस्ति असत्यम् इति पदं समस्तपदम् अत्र किं वदामः न सत्यम् असत्यं तत्र समासस्य नाम अस्ति नै समासः अहं सत्यमेव वदामि असत्यं न वदामि अहं सर्वदा सत्यमेव वदामि अहं दरिद्रः इत्यत्र नास्ति एव सन्देहः अत्र इत्यत्र इति पदमस्ति कोऽपि वदतु अत्र पदविच्छेदं कुर्मः चेत् किं भवति इत्यत्र
इति अत्र
उत्तमं तस्य सन्धेः नाम किम्
इति इकारान्त इत्यत्र यण्सन्धिः भगिनि
यण्सन्धिः वयं पूर्वमेव पठितवन्तः इति अहं दरिद्रः इति अत्र कोऽपि सन्देहः नास्ति इति उक्तवान् दरिद्रः अग्रिमम् अधुना लक्ष्मी भगिनी भवती पठतु
भवान् दरिद्रः खलु अतः एवं करोतु भवान् स्वस्य हस्तद्वयं मह्यं ददातु भवते लक्ष डालर् परिमितं धनं दास्यामि तदा भवतः दरिद्रता निवारिता भविष्यति इति
लिङ्कन् महोदयेन उक्तम्
लिङ्कन् महोदयेन उक्तम्
उत्तमम् अत्र किमस्ति पूर्वस्मिन् परिच्छेदे सन्देहः इति पदमस्ति सन्देहः इत्युक्ते शङ्का अथवा संशयः इति वदामः अन्यानि पदानि शङ्का इत्युक्ते सन्देहः संशयः इत्युक्ते सन्देहः यु डोण्ट् नीड् टु डौट् मी इति अर्थः अत्र दरिद्रः वदति अहं सत्यमेव वदामि इति वदति तदा लिङ्कन् महोदयः दरिद्रं प्रति वदति भवान् दरिद्रः खलु वयं पठितवन्तः खलु इसन्ट् इट् भवान् निश्चयेन दरिद्रः खलु अतः एवं करोतु इत्युक्ते अहं किञ्चित् वदामि ऐ विल् गिव् यु एन् अड्वैस् एवं करोतु एवं रीत्या करोतु किं भवान् स्वस्य हस्तद्वयं मह्यं ददातु हस्तद्वयं टु हेण्ड्स् मह्यं ददातु मह्यं कीदृशं रूपं कोऽपि वदतु उत्तमम् अस्मत् शब्दस्य चतुर्थीरूपम् अस्मत् चतुर्थीरूपं यदा कदापि ददामि ददातु तादृशानि पदानि सन्ति चेत् तदा सम्प्रदाने चतुर्थी इति वदामः इत्युक्ते दाने दानार्थे तत्र चतुर्थरूपम् आयाति अपि च यदि भवान् भवतः हस्तद्वयं मह्यं ददातु भवते अत्र भवते कीदृशं रूपं
भवते अपि चतुर्थी चतुर्थी विभक्तिः भवत् शब्दस्य भगिनि तकारान्त भवत् शब्दस्य चतुर्थी विभक्तिः एकवचनम्
उत्तमम् अत्र भवत् इति प्रातिपदिकमस्ति किन्तु प्रथमाविभक्त्यन्तरूपं भवान् भवान् भवत् शब्दस्य चतुर्थीरूपं भवते उत्तमं, भवान् हस्तद्वयं मह्यं ददातु, अहं किं ददामि तस्मिन्, तस्य कृते $100,000 परिमितं धनं दास्यामि, भवते दास्यामि. अत्रापि सम्प्रदाने चतुर्थी इत्यनेन चतुर्थ्यन्तं रूपं भवते दास्यामि. दास्यामि कीदृशं रूपं
दास्यामि? भूतकाले वा न, भविष्यत्काले? उत्तमपुरुष
उत्तमं ददाति लट्लकारस्य. किं वदामः भविष्यत्कालरूपम् इत्युक्ते लकारः कः? लृट् इति वदामः. लट् इत्युक्ते वर्तमानकालः, लृट् इत्युक्ते भविष्यत्कालः. अहं दास्यामि, किं दास्यामि? $100,000 परिमितं धनं दास्यामि. तदा भवतः दरिद्रता निवारिता भविष्यति. इत्युक्ते तादृशरीत्या अहं भवतः दरिद्रतां दूरीकर्तुम् इच्छामि. तदर्थं भवान् किं करोतु, भवतः हस्तद्वयं मह्यं ददातु, अहं धनं ददामि इति लिंकन् महोदयः उक्तवान्. पश्यन्तु अत्र एकं वाक्यमस्ति, लिंकन् महोदयेन उक्तम् इति वाक्यमस्ति. अत्र एतद् वाक्यं कर्मणि प्रयोगे अस्ति. साधारणतया वयं किं वदामः, कर्तरिप्रयोगः कर्मणिप्रयोगः. अत्र कर्मणिप्रयोगः इत्युक्ते पासिव् वाय्स्, लिंकन् महोदयेन उक्तम् इति लिखितमस्ति. तद्वाक्यं कर्मणि प्रयोगे अस्ति. अग्रिमम् अत्र कादम्बरी भगिनी पठतु वा? पठतु.
हस्तद्वयं भवते दत्वा अहं कथं कार्यं करोमि? तौ मम अमूल्यहस्तौ, तौ दातु दातुं न शक्नोमि इति दरिद्रः उक्तवान्.
उत्तमम्. अत्र एकवारं पश्यतु भगिनी, हस्तद्वयम् इत्युक्ते मम हस्तद्वयं भवते दत्वा, अत्रापि भवते इति चतुर्थ्यन्तं रूपं भवान् शब्दस्य, दत्वा. अत्र पश्यन्तु सर्वे, दत्वा इति पदमस्ति. तत्र यदा वयं दत्वा इति पदं लिखामः तत्र तकारद्वयं लेखनीयम्. इत्युक्ते तत्र तकारद्वयं दत्वा, तत्र न केवलं तकारः, तत्र पुनः एकवारं तकारः लेखनीयः, दत्वा इति लेखनीयं. तत्र यदा वयं तत्पदं लिखामः तादृशरीत्या एव लेखनीयम्. अहं मम हस्तद्वयं भवते ददामि चेत् अहं कार्यं कथं कर्तुं शक्नोमि? तौ मम अमूल्यहस्तौ, तौ अमूल्यहस्तौ. अत्र वचनं किम्?
द्विवचनं.
द्विवचनं, द्विवचनं. किमर्थं चेत् अत्र वयं जानीमः संस्कृतभाषायाम् एकवचनं द्विवचनं बहुवचनम् अपि अस्ति. अत्र हस्तद्वयम् अथवा एतौ द्वौ मम अमूल्यहस्तौ, दे आर् वेरि प्रशस्, दिस् टु हेण्ड्स् आर् मै प्रशस् हेण्ड्स्. तौ मम अमूल्यहस्तौ, अतः तौ दातुं न शक्नोमि इति दरिद्रः उक्तवान्. कादम्बरी भगिनी पुनः अग्रिमं परिच्छेदं पठतु.
तदा लिंकन् महोदयः उक्तवान्, तर्हि भवतः पादद्वयं ददातु, $2,000,000 परिमितं धनं दास्यामि इति.
उत्तमम्. इत्युक्ते तदा लिंकन् महोदयः किम् उक्तवान्? तर्हि यदि भवान् हस्तद्वयं न दातुमिच्छति चेत् तदा भवान् एकं करोतु, तर्हि भवतः पादद्वयं ददातु तदा अहं $200,000 परिमितं धनं दास्यामि. ऐ गिव् यु $200,000. यदि भवान् भवतः पादद्वयं ददाति चेत् अहं $200,000 परिमितं धनं दास्यामि. तदा किं भवति? भवतः दरिद्रता निवारिता भवति. तथा करोतु इति सः दरिद्रं प्रति वदति. अग्रिमम् अत्र साईकृष्णमहोदय भवान् पठतु.
लिंकन् महोदयस्य वचनानि श्रुत्वा दरिद्रः आतङ्केन, आर्य किं वदति भवान्? यदि पादद्वयं ददामि तर्हि कथं चलामि? भवान् $1,000,000 परिमितं धनं ददाति चेदपि अहं दातुं न शक्नोमि. पादौ मम अमूल्यौ इति उक्तवान्.
अत्र पुनः एकवारं खण्डशः पश्येम. लिंकन् महोदयस्य वचनानि श्रुत्वा, अत्र वचनम् एकवचनं, वचनानि बहुवचनरूपं. लिंकन् महोदयस्य वचनानि, अत्र वचनम् इति पदं ल्युट् प्रत्ययान्तरूपं. सः लिंकन् महोदयः यदुक्तवान् तत् श्रुत्वा दरिद्रः किं वदति? दरिद्रः आतङ्केन वदति. अत्र आतङ्कः इत्युक्ते किं वदामः? व्यधया, बाधया अथवा पीडया, वेदनया, मनोवेदनया अथवा मनस्तापेन वदति दरिद्रः. किं वदति? आर्य, आर्य इत्युक्ते अत्र आदरणीय मान्यमहोदय इति अर्थः. आर्य इत्युक्ते मान्यमहोदय, भवान् किं वदति? यदि मम पादद्वयं ददामि तर्हि कथं चलामि? भवान् $1,000,000 परिमितं धनं ददाति चेदपि, वयं पठितवन्तः चेत्, नो चेत् वयं पूर्वमेव पठितवन्तः. अत्र दरिद्रः वदति भवान् $1,000,000 परिमितं धनं ददाति चेत् अपि अहं मम पादद्वयं दातुं न शक्नोमि. ऐ काण्ट् गिव् यू मै लेग्स्, मै टू लेग्स्. अत्रापि महोदय वदतु, पादौ अमूल्यौ. वचनं किम्?
पादौ द्विवचनं, मम अमूल्यौ, अमूल्यौ इम्पोर्टेण्ट्.
उत्तमम्. इत्युक्ते अमूल्यौ, अत्रापि नैसमासः अस्ति. इत्युक्ते अमूल्य इत्युक्ते दे आर् टु प्रेशस् दट् यु केण्ट् इमेजिन् द प्रैस् आफ् इट् इति अर्थः. अत्र पादौ अमूल्यौ इति द्विवचनरूपमस्ति. मम पादौ अमूल्यौ इत्युक्ते मम पादद्वयं बहु अमूल्यम्, अतः मम पादद्वयं दातुं न शक्नोमि. यदि ददामि, पादद्वयं ददामि चेत् कथं चलामि? चलितुं न शक्नोमि. अतः न सः तादृशरीत्या वदतु.
प्रश्नं परिमितम् इत्युक्ते,
परिमितम् इत्युक्ते दट् मच्, अत्र $1,000,000 परिमितं, $10,00,000 आफ् मनि. अत्रापि परि इति उपसर्गः अस्ति, अपि च मा धातुः अस्ति, क्तान्तरूपं मित. मा धातोः रूपं माति इति लट्लकाररूपमस्ति, किन्तु परिमित इति पदमपि क्तान्तरूपं. दट् मच् अमौण्ट् इति अर्थः अत्र. अग्रिमपरिच्छेदं शैलजा भगिनी भवती करोतु, शीघ्रं समापयामः.
लिंकन् महोदयः पुनः उक्तवान्, भवान् हस्तद्वयं दातुं न शक्नोति, पादद्वयमपि दातुं न शक्नोति खलु? भवतु नाम भवतः नेत्रद्वयं ददातु. तन्निमित्तम् अहं भवते $400,000 परिमितं धनं दास्यामि. तेन भवान् सुखेन जीवितुं शक्ष्यति इति.
उत्तमम्. अत्र पूर्वस्मिन् परिच्छेदे चेदपि इति पदमस्ति. तत्रापि चेत् योगः अपि तत्र जस्त्वसन्धिः अस्ति. तत्र सन्धेः नाम अस्ति जस्त्वसन्धिः. तत्र तकारस्य स्थाने दकारः आगतः. चेत् प्लस् अपि चेत् योगः अपि इति वदामः. अस्मिन् परिच्छेदे किं किं दत्तमस्ति? लिङ्कन् महोदयः दरिद्रं प्रति किम् उक्तवान्? भवान् हस्तद्वयं दातुं न शक्नोति, पादद्वयम् अपि दातुं न शक्नोति. अत्र पादद्वयमपि इति पदमस्ति. तत्र सन्धिः नास्ति, केवलं वर्णमेलनम् एव अस्ति. पादद्वयं योगः अपि पादद्वयमपि इति अस्ति, केवलं वर्णमेलनमस्ति. पादद्वयमपि दातुं न शक्नोति खलु. भवतु नाम, भवतु नाम इत्युक्ते इट्स् ओके. अत्र भवतु नाम इत्युक्ते किमपि भवतु नाम. यदि भवान् न इच्छति चेत् तत् सम्यक् एव, किन्तु एवं करोतु, भवतः नेत्रद्वयं ददातु. नेत्रम् इत्युक्ते लोचनद्वयम् अथवा नयनद्वयम् अथवा चक्षुद्वयं. चक्षु इति पदमपि अस्ति, चक्षुष् षकारान्तपदम्. भवान् भवतः अत्र भवतः कीदृशं पदम्? उत्तमम्. अस्माकम् अभ्यासपुस्तके प्रथमे पुटे एव एतत् पदमस्ति. भवतः नाम किम्? अत्र तथा एव अत्र भवतः इति षष्टि एकवचनरूपं. भवतः नेत्रद्वयं मह्यं ददातु. तन्निमित्तम् अत्र पश्यन्तु, तन्निमित्तम् अत्र तत् प्लस् निमित्तम् इति लिखितमस्ति. इत्युक्ते तत् तकारस्य स्थाने नकारः आगतः. अत्र अत्रापि सन्धिः अस्ति, सन्धेः नाम अस्ति अनुनासिकसन्धिः इति वदामः. किन्तु अत्र सः लिङ्कन् महोदयः किं वदति? यदि भवान् भवतः नेत्रद्वयं ददाति तर्हि अहं भवते $4,00,000 परिमितं धनं दास्यामि. तेन यदि भवतः पार्श्वे $4,00,000 धनम् अस्ति चेत् सुखेन भवान् जीवितुं शक्नोति. अत्र तथा करोतु. यदि पादद्वयं हस्तद्वयं न दातुमिच्छति चेत् नेत्रद्वयं ददातु इति वदति. अत्र शक्ष्यति इति पदमस्ति, कीदृशं रूपं?
जीवितुं शक्ष्यति, शक्ष्यति नास्ति, शक्ष्यति, शक्ष्यति एव.
कोऽपि वदतु अत्र
केन जीवितुं शक्ष्यति, शक्ष्यति,
शक्नोति. वयं जानीमः शक्नोति इति पदस्य लृट्लकाररूपं शक्ष्यति. अत्र ददामि, ददामि इत्यस्य लृट् रूपं दास्यामि,
दास्यामि.
अत्र सुखेन, सुखं सुखं शब्दस्य तृतीयाविभक्त्यन्तरूपं सुखेन. अत्र जीवितुम् एतदपि तुमन्नन्तं रूपम्. अत्र जीव इति धातुः अस्ति संस्कृतभाषायां, जीव धातोः रूपं जीवति. किन्तु अत्र तुमन्नन्तं रूपं दत्तमस्ति, जीवितुम्. तेन भवान् सुखेन जीवितुं शक्ष्यति. यदि अहं $4,00,000 धनं ददामि तर्हि भवान् सुखेन जीवितुं शक्ष्यति. तथा तदर्थं भवान् भवतः नेत्रद्वयं मह्यं ददातु इति लिङ्कन् महोदयः उक्तवान्. अधुना लक्ष्मी भगिनी भवती पठतु अग्रिमम्.
तत् श्रुत्वा कुपितः दरिद्रः तं बहु तर्जितवान्. एवम् उपहासं कुर्वन् भवान् मां मूर्खं मन्यते किम्? एकवारं हस्तद्वयं ददातु इति वदति, पुनः पादद्वयं ददातु इति वदति, अनन्तरं नेत्रद्वयं ददातु इति वदति. नेत्रे दत्ते चेत् अहं कथं पश्येयम्?
अपि च कथं जीवेयम्?
कथं जीवेयम्? धनार्थं मम अङ्गानि दत्त्वा अहं पराधीनः भवितुं न इच्छामि. भवान् कोटिपरिमितं धनं ददाति चेदपि अहं भगवता दत्तानि अत्यमूल्यानि अङ्गानि न ददामि इति कोपेन आक्रोशनं कृतवान् दरिद्रः.
उत्तमम्. अत्र किमस्ति, तत् श्रुत्वा कुपितः दरिद्रः, दरिद्रः कुपितः. अत्र कुपितः इति पदमपि क्तान्तरूपमस्ति. कुप्यति इति लट्लकाररूपं, कुप् धातोः रूपमेव कुप्यति. सः दरिद्रः कुपितवान्, कोपं करोति. कृत्वा सः वदति तं बहु तर्जितवान्. तम् इत्युक्ते अत्र अब्रहां लिङ्कन् महोदयं तर्जितवान्. तर्जितवान् इत्युक्ते निन्दनं कृतवान् अथवा आक्रोशनं कृतवान् अथवा निन्दावाक्यानि उक्तवान् सः दरिद्रः. किं वदति, एवम् उपहासं कुर्वन् भवान् मां मूर्खं मन्यते किम्? इत्युक्ते भवान् किमर्थम् उपहासं करोति मां दृष्ट्वा? एवं रीत्या भवान् किमर्थं वदति? अत्र कुर्वन् इति शत्रन्तरूपं. भवान् किमर्थम् उपहासं कुर्वन् अस्ति? मां मूर्खं मन्यते किम्? डु यु थिङ्क् ऐ एम् ए फूल्? अत्र माम् इति पदम् अहं शब्दस्य द्वितीयान्तं रूपं, मन्यते इति पदमस्ति. मूर्खः, मूर्खः इति पदमपि मुह् धातोः रूपमेव. मूर्ख, मूर्खं मन्यते किं? मन्यते इति पदम् आत्मनेपदी. अत्र मन् धातोः रूपं मन्यते. रूपाणि कथं भवन्ति आत्मनेपदीरूपाणि? मन्यते, मन्यते, मन्यन्ते, तथा भवन्ति. अत्र मन्यते इति रूपं दिवादिगणीयधातुः, आत्मनेपदीरूपम् अस्ति. भवान् मां मूर्खं मन्यते किम्? डु यु थिङ्क् ऐ एम् ए फूल्? एकवारं हस्तद्वयं ददातु इति वदति, पुनः पादद्वयं ददातु इति वदति, अनन्तरं नेत्रद्वयं ददातु इति वदति. नेत्रे दत्ते चेत्, अत्र पश्यन्तु चेत् इति दत्तमस्ति. यदि अहं नेत्रे दत्ते, अत्र द्विवचनरूपमस्ति. किमर्थम्? अस्माकं केवलं नेत्रद्वयमेव अस्ति, अतः नेत्रं, नेत्रे, नेत्राणि, अत्र द्विवचनरूपं. नेत्रे दत्ते सति, अहं नेत्रद्वयं ददामि चेत् कथं पश्येयम्? अत्र पश्येयं कीदृशं रूपं कोऽपि वदतु?
विधिलिङ्ग, विधिलिङ्गरूपं भगिनि.
उत्तमं, विधिलिङ्गलकाररूपं. वयं जानीमः संस्कृतभाषायां दशलकाराः सन्ति, तेषु अन्यतमः विधिलिङ्गलकारः. विधिलिङ्गलकार लकारस्य उपयोगः कः इत्युक्ते, विध्यर्थे, सम्भावनार्थे तस्य उपयोगं कुर्मः. दृष् धातोः रूपं वयं जानीमः, पश्यति, पश्यामि. किन्तु पश्यति, पश्यामि लट्लकाररूपाणि, किन्तु अत्र विधिलिङ्गरूपमस्ति. विधिलिङ्ग उत्तमपुरुष एकवचनरूपम्. अहं कथं पश्येयं? हौ केन् ऐ सी इति अर्थः. नेत्रे दत्ते चेत्, यदि अहं नेत्रद्वयं ददामि चेत् कथं द्रष्टुं शक्नोमि? अपि च कथं जीवेयम्? अत्रापि जीवेयम् इति पदमपि विधिलिङ्गलकाररूपमस्ति. अत्र उत्तमपुरुष विधिलिङ्ग एकवचनरूपं. धनार्थं इतोपि सः दरिद्रः किम् उक्तवान्? धनार्थं मम अङ्गानि सर्वाणि ददामि चेत् अहं पराधीनः भवामि. तथा तादृशरीत्या अहं पराधीनः, पराधीनः इत्युक्ते स्वतन्त्रः नास्ति. यदि केवलं अत्र किं वदामः, सर्वाणि अङ्गानि ददामि चेत् अहं पराधीनः भवामि, इत्युक्ते परतन्त्रः भवामि, स्वतन्त्रः न भवामि. इत्युक्ते अन्या स्वतन्त्रः न भवामि इत्युक्ते तादृशरीत्या सर्वाणि अङ्गानि दत्त्वा पराधीनः भवितुं न इच्छामि. भवान् कोटि डालर् परिमितं धनं ददाति चेदपि, अत्रापि चेत् अपि चेदपि जस्त्वसन्धिः अस्ति. भगवता दत्तानि अति अमूल्यानि अङ्गानि न ददामि. अत्र भगवता दत्तानि इति अस्ति. भगवता कीदृशं रूपं?
भगवता भगवता अहं भगवता दत्तानि, भगवता तृतीयविभक्ति,
तृतीयविभक्त्यन्तरूपाणि. अत्र भगवत् इति प्रातिपदिकमस्ति. भगवत् शब्दस्य तृतीयान्तं रूपं भगवता, प्रथमविभक्त्यन्तरूपं भगवान्.
भगवान्
अत्र भवान् कोटि डालर् परिमितं धनं ददाति चेदपि अहं भगवता दत्तानि मम अङ्गानि दातुं न इच्छामि इति सः दरिद्रः कोपेन आक्रोशनं कृतवान्. सः कुपितः भूत्वा आक्रोशनं कृतवान् इत्युक्ते निन्दनं कृतवान् अथवा गर्जनं कृतवान् इति सः वदति. अत्र इतोपि किञ्चित् कथा अस्ति, काचित् कथा अस्ति, किञ्चित् शीघ्रं समापयामः वा? अत्र साईकृष्णमहोदय भवान् पठतु.
लिंकन् महोदयः शान्तस्वरेण, भो शृणोतु, तानि सर्वाणि अङ्गानि अत्यमूल्यानि इत्यतः तानि दातुं निराकृतवान् भवान्. यद्यपि एतानि अमूल्यानि सुरुट्ठानि अङ्कानि प्राप्तानि भवता, तथापि अहं दरिद्रः इति किमर्थं वदति भवान्? भवान् प्रपञ्चस्य कश्चन ऋटुखायः आरोग्यवान् जनः. स्मरतु एतत्, तेषां सदुपयोगं चिन्तयतु. तथा करोति चेत् भवान् कश्चन महापुरुषः अपि भवितुम् अर्हति इत्येतावत् यदा उक्तवान् तदा झटिति सः दरिद्रः लिंकन् महोदयस्य हस्तद्वयं गृहीत्वा क्षमां याचन् उक्तवान्, कृपया मां क्षमयतु, मम समीपे एतानि अमूल्यानि वस्तूनि सन्ति इति एतावत् पर्यन्तं मया न ज्ञातुम् एव आसीत् तेषाम् अमूल्यता भवता दर्शिता. अहम् इदानीम् आश्वासनं ददामि यत् इतः परम् अहं भिक्षायाचनं न करिष्यामि इति. परिश्रमेण कार्यं कृत्वा सार्थकं जीवनं करोमि. अहं न दरिद्रः इति धैर्येण सर्वेषां पुरतः वदिष्यामि इति. एतानि वचनानि श्रुत्वा लिंकनस्य मुखे तृप्तिभावः, मन्दहासश्च प्रसृतः.
उत्तममहोदय, शीघ्रं समापयामः. अत्र किमस्ति, इदानीं पर्यन्तं लिंकन् महोदयः श्रुतवान् तत्र दरिद्रः किं वदति, अहं मम अमूल्यानि अङ्गानि दातुं न इच्छामि. यद्यपि अहं दरिद्रः तदापि अहं मम अङ्गानि सर्वाणि दत्वा अहं पराधीनः भवितुं न इच्छामि, अतः न ददामि एव इति सः दरिद्रः वदति. तदा लिंकन् महोदयः वदति शान्तस्वरेण, अत्र पश्यन्तु शान्तस्वरः इति पदस्य तृतीयान्तं रूपं शान्तस्वरेण इत्युक्ते शान्तयुक्तस्वरेण सः वदति, भोः शृणोतु, तानि सर्वाणि अङ्गानि अति अमूल्यानि इत्यतः तानि दातुं निराकृतवान् भवान्। इत्युक्ते भवान् अपि चिन्तयति किं भवतः पार्श्वे यानि अङ्गानि सन्ति तानि सर्वाणि अति अमूल्यानि इति भवान् चिन्तयति एव, तदर्थं तानि अङ्गानि दातुं भवान् न इच्छति, निराकृतवान् इत्युक्ते निराकरोति, सः दातुं न दातुं निराकरोति, निराकृतवान्। अतः यद्यपि एतानि अमूल्यानि सुदृढानि भवतः अङ्गानि सर्वाणि अपि, पादद्वयं वा भवतु, हस्तद्वयं, नेत्रद्वयम्, एतानि सर्वाणि अङ्गानि अमूल्यानि, न केवलम् अमूल्यानि, तानि सर्वाणि सुदृढानि, सुदृढानि अङ्गानि प्राप्तानि। अत्र प्राप्तानि इति पदं वयं जानीमः, प्राप्नोति इति पदं जानीमः, प्राप्नोति इत्युक्ते प्रा उपसर्गपूर्वकः आप् धातुः रूपमेव, लट्लकाररूपं प्राप्नोति, किन्तु अत्र क्तान्तरूपमस्ति, भवता प्राप्तानि, किं प्राप्तानि, सुदृढानि अङ्गानि प्राप्तानि, यद्यपि एतानि अमूल्यानि अङ्गानि भवता प्राप्तानि, अत्र पश्यन्तु भवता प्राप्तानि, भवता इति भवान् शब्दस्य तृतीयान्तं रूपम्, अत्र वाक्यमस्ति कर्मणि वाक्यं, सुदृढानि अमूल्यानि एतानि अङ्गानि भवता प्राप्तानि, एतद्वाक्यं कर्मणि प्रयोगे अस्ति। तथापि यद्यपि भवतः पार्श्वे अमूल्यानि अङ्गानि सन्ति चेदपि भवान् किमर्थम् अहं दरिद्रः, अहं दरिद्रः किमर्थं तथा वदति, भवान् प्रपञ्चस्य कश्चन दृढकायः, इत्युक्ते भवतः शरीरं बहु दृढमस्ति, भवतः पार्श्वे अमूल्यानि अङ्गानि सन्ति, भवान् तु आरोग्यवान् जनः, इत्युक्ते भवान् भवतः पार्श्वे सम्यक् आरोग्यमस्ति, स्मरतु एतत् सर्वदा, मा विस्मरतु, डोण्ट् फर्गेट् दिस्, आल्वेस् रिमेम्बर् दिस्, अहं बहु आरोग्यवान्, अतः अहं यत् कर्तुमिच्छामि तत् सर्वं कर्तुं शक्नोमि, किमर्थं चेत् मम पार्श्वे समीचीनम् आरोग्यमस्ति, अमूल्यानि अङ्गानि सन्ति, अतः अहं दरिद्रः इति मा चिन्तयतु, किन्तु भवतः पार्श्वे यानि सुदृढानि अङ्गानि सन्ति तेषां सदुपयोगं करोतु, सदुपयोगं, सत् उपयोगं, यूस् देम् प्रापर्ली, तेषां भवतः अङ्गानां सदुपयोगं करोतु, तथा करोति चेत् किं भवति, चेत् वयं पठितवन्तः, तथा करोति चेत् भवान् कश्चन महापुरुषः भवितुमर्हति, इत्युक्ते अमूल्यानाम् अङ्गानां सदुपयोगं कृत्वा भवान् नित्यं कार्यं करोति चेत् भवान् एकः महापुरुषः भवितुं शक्नोति, भवितुम् अर्हति, भवान् दरिद्रः इति मा चिन्तयतु इति एतावत् यदा उक्तवान् तदा झटिति, इत्युक्ते ईदृशरीत्या अब्रहाम् लिङ्कन् महोदयः दरिद्रं प्रति वदति, तदा किम् अभवत्, तदा सः दरिद्रः झटिति, झटिति इत्युक्ते शीघ्रम्, इमिडियट्लि, सः दरिद्रः लिङ्कन् महोदयस्य हस्तद्वयं गृहीत्वा क्षमायाचन् उक्तवान्, क्षमां याचन्, याचन् इति पदं शत्रन्तरूपं, क्षमां याचितवान्, क्षमायाचनं कृतवान्, अत्र क्षमा इति पदमस्ति, अत्र संस्कृतभाषायां क्षमते अथवा क्षाम्यति इति पदद्वयमपि अस्ति, क्षं धातोः रूपमेव क्षमा, क्षमां याचितवान्, तदनन्तरं किम् उक्तवान्, कृपया मां क्षाम्यतु इति सः वदति, साधारणतया वयं किं वदामः कक्षायां, क्षम्यताम् इति वदामः, तदेव अत्र क्षाम्यति इति लट्लकाररूपमस्ति, किन्तु क्षाम्यतु इति लोट्लकाररूपं, दिवादिगणीयधातुः अस्ति क्षं धातुः, तत्र दरिद्रः अब्रहाम् लिङ्कन् महोदयं प्रति तस्य महोदयस्य हस्तद्वयं गृहीत्वा वदति, किं वदति, कृपया मां क्षाम्यतु, मम समीपे एतानि अमूल्यानि वस्तूनि, वस्तूनि इत्युक्ते मम अङ्गानि एव, मम शरीरस्य सर्वाणि अङ्गानि अति अमूल्यानि सन्ति इति एतावत्पर्यन्तं मया न ज्ञातम्. सो फार् ऐ कुडन्ट् अण्डर्स्टाण्ड् दट् फ्याक्ट् इति सः वदति. इत्युक्ते मम पार्श्वे अमूल्यानि शरीर अवयवाः सन्ति, अमूल्य अवयवाः सन्ति इति तु सत्यं. तेषाम् उपयोगं करोमि चेत् बहु किमपि कार्यं कर्तुं शक्नोमि, बहु किमपि धनमपि सम्पादयितुं शक्नोमि. किन्तु एतावत्पर्यन्तं अयं विषयः मया न ज्ञातः, मया न ज्ञातम् एतद्वाक्यमपि कर्मणि प्रयोगे अस्ति. एतावत्पर्यन्तं सो फार् ऐ कुडन्ट् अण्डर्स्टाण्ड् दिस् फ्याक्ट्. तेषाम् इत्युक्ते केषां शरीरस्य अवयवानाम् अमूल्यता भवता दर्शिता. नौ ऐ एम् एबल् टु अण्डर्स्टाण्ड्. अपि च भवता दर्शिता, अत्र दर्शिता इति पदमस्ति. दर्शिता इत्युक्ते तत्र किं वदामः, दृश् धातोः रूपं, किन्तु णिजन्तरूपम् इति वदामः. साधारणकृतान्तरूपं किं भवति, दृष्टा इति भवति, किन्तु अत्र दर्शिता इति इत्युक्ते भवान् दर्शितवान्. अत्र साधारणं पदं किं, पश्यति इति साधारणलट् रूपं, किन्तु दर्शयति इति निजन्तरूपं. दर्शयति इति पदात् एव दर्शिता. किं दर्शिता, मम अङ्गानाम् अमूल्यता दर्शिता. केन, भवता. भवता इति रूपं भवान् शब्दस्य तृतीयान्तं रूपम्. अधुना एव अहम् अवगतवान् तत् मम पार्श्वे ईदृशानि अमूल्यानि अङ्गानि सन्ति, तेषां सदुपयोगं करोमि चेत् बहु धनं सम्पादयितुं शक्नोमि इति वदति. अहम् इदानीम् आश्वासनं ददामि. आश्वासनम् इति एकं पदम्. आश्वासनम् इत्युक्ते अशूरेन्स्. अशूरेन्स् ददामि, आश्वासनं ददामि. किम् इत्युक्ते इतः परं, फ्रम् नौ आन्वर्ड्स्, यत् अग्रे गत्वा वयं पठिष्यामः यत् इत्यस्मिन् विषये. यत् भिन्नं पदं, यतः भिन्नं पदम्. अत्र अधुना अहम् एकं किं वदामः, अश्यूरेन्स् इति वदामश्चेत् अभयम् अथवा वचनं ददामि. किं वचनम्, अहं न कदापि भिक्षायाचनं न करिष्यामि इतः परम्. इदानीं पर्यन्तम् अहं दरिद्रः, दरिद्रः इति वदन्नस्मि, किन्तु अग्रे गत्वा अहं न कदापि भिक्षायाचनं करोमि, करिष्यामि. अपि च इतोपि किं करोमि, परिश्रमेण कार्यं कृत्वा सार्थकं जीवनं करोमि. परिश्रमं कृत्वा सार्थकं जीवनयापनं करोमि. अहं न दरिद्रः इति धैर्येण, धैर्येण इति तृतीयान्तान् रूपम्. अहं न दरिद्रः किमर्थं, मम पार्श्वे अमूल्यानि अङ्गानि सन्ति इति तस्य चिन्तनं. धैर्येण सर्वेषां पुरतः वदिष्यामि. किं वदिष्यामि, अहं न दरिद्रः इति वदिष्यामि. अत्र वदिष्यामि रुट्लकाररूपम् इति सः दरिद्रः अब्रहां लिङ्कन् महोदयं प्रति उक्तवान्. तदा अब्रहां लिङ्कन् महोदयः बहु सन्तोषेण मन्दहासं कृतवान्. एतानि वचनानि श्रुत्वा लिङ्कनस्य मुखे तृप्तिभावः, इत्युक्ते हि फेल्ट् हेपी अण्ड् साटिस्फैड् इति वदामः. मन्दहासः च प्रसृतः. अत्र पश्यन्तु, प्रश्रुतः इति पदमस्ति, एतदपि क्तान्तरूपं, प्र उपसर्गपूर्वकः श्रुधातुः, किन्तु अत्र लट्लकाररूपमस्ति. सरति, तत्र सरति इति लट्लकाररूपं, किन्तु प्रसृतः इति क्तान्तरूपम्. इत्युक्ते एतत् सर्वम् इत्युक्ते सः दरिद्रः सम्यक् अवगतवान्. अधुना तस्य पार्श्वे अमूल्यानि अवयवानि सन्ति इति कृत्वा सः दरिद्रः न, इति सः सम्यक् अवगतवान्। तदनन्तरं सः परिश्रमं कृत्वा सः उत्तमं जीवनयापनं कृतवान् इति अर्थः। तथा समाप्ता। किन्तु भवन्तः सर्वे कथायाः नीतिः का इत्यस्मिन् विषये वाक्यद्वयं रचयन्तु। बहु कालातीतः अभवत्। सर्वेषां धन्यवादः। नमस्कारः।
धन्यवादः भगिनि।
नमस्कारः। धन्यवादः।